एषा रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली ह्यः ट्वीट सञ्जालस्य माध्यमेन विद्यमान सामग्रीणाम् अधिकाधिक प्रयोगेण परीक्षणे उपचारे च संलग्नाः भवितुम् स्वास्थ्यकर्मिणः आह्वयति। प्रधानमन्त्रिणा चिकित्सकानां प्राविधिकानां चैव परामर्शे अतिरिक्त सामग्र्यः क्रमेण प्राप्स्यन्ते इति च ज्ञापितम्। कोरोना विषाणुभिः सृष्टस्य मानवीय संकटस्य एकीभूय प्रतिकाराय चिकित्सकेभ्यः प्राविधिकेभ्यश्च सर्वकारस्य सर्वदैव सहयोगोस्तीति कारणात् चिन्तिताः न भवितुमपि प्रधानमन्त्रिणा अनुरुद्धाः सन्ति। कोरोना नियन्त्रण निरोधनोच्च स्तरीय समितेः संयोजकः उपप्रधानमन्त्री ईश्वर पोखरेलः कोरोना संक्रमणेन सह योद्धुम् अतिरिक्त सामग्र्यः आवश्यक्यः सन्तीति कारणात् एतादृश्यः सामग्र्यः शीघ्रम् आनेष्यन्ते इति वदति। रक्षामन्त्रालये गतदिने नागरिक समाजस्य अग्रणीभिः सह विहितं विमर्शनमनु संचारकर्मिभिः सह उपप्रधानमन्त्री पोखरेल अवदत् विश्वमेव कोरोना विषाणूनां संक्रमणेन प्रभावितम् अस्तीति समये आवश्यक सामग्रीणाम् आनयनाय बहवः प्रक्रियाः वव्यः प्रक्रियाः पूरणीयाः भवन्तीति हेतोः ईषत् समयः व्यतीतः सन्नपि एतादृशीनां सामग्रीणां शीघ्रम् आपूर्तिर्भविष्यति। उपप्रधानमन्त्री पोखरेलः पिधानस्य समये औषध खाद्यान्न फल दुग्ध प्रवृत्तीनाम् आवश्यक वस्तूनां विक्रय वितरणे अवरुद्धे नस्त इति समस्पष्टयत्। उपप्रधानमन्त्री पोखरेलः पिधानस्य समये यस्य कस्यापि देशस्य नागरिकः यत्र कुत्रापि सन्नपि तस्य दायित्वं तेनैव देशेन बोढव्यमिति व्यवस्थास्तीति चर्चयन् अवोचत् नेपालस्य विभिन्न स्थानेषु विद्यमाना वैदेशिक नागरिकाः स्वस्यैव प्रबन्धेन स्वदेशं गन्तुम् इच्छन्ति चेत् सर्वकारः व्यवस्थापनं विदधाति। लक्षशो नेपालिनः विदेशात् नेपालं प्रत्यावृताः सन्तीति हेतोः तेषां संसर्ग निषेधनावासेषु स्थापनात्मक व्यवस्थां विधाय सर्वकारेण कोरोना संक्रमणस्य विस्तार निरोधनाय कार्यं विधीयमानमस्तीति चर्चयन् उपप्रधानमन्त्री पोखरेल अवासत कोरोना विषाणुभिः सर्वे प्रभाविताः सम्भवन्तीति हेतोः सर्वकारस्य एतस्मिन् कार्ये सर्वेषां सहयोगः आवश्यको भवति। व्यक्तिगत सुरक्षोपकरणस्य अभावं प्रदर्श्य चिकित्सालयैः ज्वरस्य प्रतिस्यायस्य कासस्य च रुग्णाः अपञ्जीकृताः इति जनानां दुःखानुवेदन वर्धनस्य अनन्तरं स्वास्थ्य जनसंख्या मन्त्रालयेन स्वास्थ्यकर्मिणां कृते नवीन सुरक्षा निर्देशिका क्रियान्विता वर्तते। कोरोना विषाणुनां संक्रमण प्रकोपस्य निराकरणाय विधीयमानान् प्रयासान् ज्ञापयितुं गतदिने मन्त्रालये आयोजिते नियमित पत्रकार सम्मेलने मन्त्रालयस्य सचिवः यादव प्रसाद कोइराला पीपीई नामधेयस्य व्यक्तिगत सुरक्षोपकरण सम्बद्ध निर्देशिका निर्धारितास्तीति अज्ञापयत्। सचिवः कोइराला साम्प्रतं कास प्रतिस्यायोः वातावरणमस्तीत्यतः निर्भयं संयमिताश्च भवितुं सर्वान् स्वास्थ्यकर्मिणः सर्वसाधारणाश्च अन्वरुणत्। सचिवः कोइराला कोरोना विषाणुभिः सम्भावित संक्रान्तान् परिचेतुं देशस्य विभिन्नाः पञ्चविंशतिः चिकित्सालयाः कोरोना रोगस्य केन्द्रीय चिकित्सालयस्य रूपेण विकसिताः सन्ति। एतैः चिकित्सालयैः तत्कालं ज्वर परीक्षणोपचार कक्षं संस्थाप्य ज्वरस्य मापन कार्यं प्रारभ्यते इत्यबोधयत्। असौ तादृशानां केन्द्रीय चिकित्सालयानां कृते ज्वरस्य मापनाय उपकरणानि क्रेतुं प्रतिचिकित्सालयं 10 लक्ष रूप्यकाणि प्रदत्तानि सन्तीति अज्ञापयत्। सर्वकारेण तास्कर्य कृत्रिमाभावसर्जन सम्बद्धं कार्यं ज्ञातं सत् शुल्करहितेषु 1194 दूरभाषाङ्केषु दूरभाषसम्पर्कं स्थापयितुं सर्वसाधारणाः अनुरुद्धाः सन्ति। कोरोना विषाणुनां संक्रमणस्य विस्तारस्य सम्भावनाम् आलक्ष्य अस्यैव चैत्रस्य 11 दिवसतः अत्यावश्यक कार्यं विहाय बहिर्न निष्क्रान्तुं सर्वकारेण विहितस्य आदेश क्रियान्वयनस्य अवस्थायां उपभोक्तृभिः सहजापूर्तेर्व्यवस्थां विधातुं सर्वकारेण व्यवसायिनः अनुरुद्धाः सन्ति। वर्तमाने जटिल समये कस्यामपि समस्याम् आपतितायं तस्याः समाधानाय गृहमन्त्रालयस्य शुल्करहितेषु अहोरातं सम्पर्क बद्धेषु 1194 दूरभाषाङ्केषु दूरभाषासम्पर्कं स्थापयितुम् अनुरुद्धं वर्तते। नागरिकेभ्यः आवश्यकानां दैनिकोपभोग्य खाद्य वस्तूनाम् आपूर्ति व्यवस्थायाः सहजीकरणाय गृह सचिवस्य महेश्वर न्यौपाने विधस्य अध्यक्षतायाम् गतदिने उपविष्टेन उपवेशेन विभिन्नान् षट्सूत्रीय निर्णयान् विधाय काष्ठमण्डपोपत्यकायाः अभ्यन्तरे विद्यमानैः अत्यावश्यक खाद्य वस्तूनाम् सर्वैः विक्रेतृभिः स्वस्व वितरण यानानाम् माध्यमेन अत्यावश्यक दैनिक कोपभोग्य वस्तूनाम् सहजापूर्तेर व्यवस्थाम् विधातुम् अनुरुद्धमस्ति। उपत्यकायाः वै अत्यावश्यक वस्तूनाम् सम्बन्धे विक्रेतृभिः आवश्यक व्यवस्थाम् विधाय आपूर्ति व्यवस्थापनम् सहजम् क्रियते। एतस्मिन् कार्ये सम्बद्ध जनपद प्रशासन कार्यालयेन स्थानीय स्तरेण च सहयोगो विधीयते इति उपवेशस्य पश्चात् प्रकाशितायम् विज्ञप्तौ ज्ञापितमस्ति। कोरोना विषाणुनाम् संक्रमणस्य महामार्याः निरोधनाय नियन्त्रणाय च सर्वकारेण विहितस्य सप्ताहव्यापिनः देशपिधापनस्य तृतीये दिने ह्योऽपि गमनागमने अत्यावश्यकम् विना यानानाम् सञ्चालनम् च पूर्णरूपेण निषिद्धानि। उद्योग वाणिज्यापूर्ति मन्त्रालयेन पूर्णपिधानादेशस्य समये खाद्यवस्तूनाम् औषधीनाम् औषध सम्बद्ध पदार्थानाम् पाचनेन्धनानाम् च विक्रय वितरणयोः आपणान् कक्षाञ्च नियमितरूपेण सञ्चालयितुम् सम्बद्धाः सर्वे अनुरुद्धाः वर्तन्ते। देशपिधापनस्य समये राष्ट्रम् सर्वकारञ्च सहयोक्तुम् आपूर्ति प्रभृति विषयेषु जनतायाः समस्याः समाधातुञ्च उद्योग व्यवसायीभिः प्रतिबद्धता व्यक्ता वर्तते। उद्योग वाणिज्यापूर्ति राज्यमन्त्रिणः मोतीलाल दुगड इत्यस्य विभिन्नैः उद्योग व्यवसायीभिः सह राज्यमन्त्रिणः एव कार्यकक्षे बुधवासरे गतदिने च विहिते विमर्शने उद्योग व्यवसायीभिः देशपिधापनस्य समये विपन्नानाम् श्रमिकाणाम् च समस्याः समाधातुम् आत्मनाम् दृढतायाः प्रतिबद्धता व्यक्तास्ति। कर्णाली प्रदेशे कोरोना विषाणुनाम् संक्रमणस्य निरोधनस्य प्रतिकार्यस्य च कार्येभ्यः अतिरिक्त तीव्रता प्रदत्ता वर्तते। गतदिने मुख्यमन्त्रिणा महेन्द्रबहादुर शाही इत्यस्य अध्यक्षतायाम् विषय मन्त्रिणाम् सचिवानाम् च संयुक्तोपवेशम् आयोज्य अद्यावधि विहितानाम् कार्याणाम् समीक्षया सह आगामि दिनेषु प्रतिकार्यस्य कार्येभ्यः तीव्रताम् प्रदातुम् कार्याणि प्रभावकारिणी विधातुम् च निर्णीतम् वर्तते।